हविष्पान्तमजरम् स्वर्विदिति विस्पृश्याहुतञ्जुष्टभग्नौ तस्य भर्मणे भुवनाय देवाधर्मणे काम् स्वधजा अपप्रथन्त गीर्णम् भवनम् तपसापगोढमा विस्फरभवज्जाते अग्नौ तस्य देवाः पृथिवेद्यौरुदापोर्णजन्नौषधे सख्ये अस्य देवेभिर्न्विषितो यज्ञिलेभिरग्निम् स्तोषाण्यजरम् बृहन्तम् यो भानुना पृथिवीन्द्यामुदे मामा तदा नरोदसी अन्तरिक्षाम् यो होतासीत्प्रथमो देवजुष्टोऽयम् समाञ्जन्राज्येनावृणानोः सपदत्रेत्परम् स्था जगद्यच्छात्रमग्निरकृणोज्जातवेदाः यज्जातवेदो भुवनस्य वार्धन्नतिष्ठो अग्ने सहरोचनेन तन्त्वा हेममदभर्गेर्भिरुक्थैः स यज्ञयो अभवरोदसिप्राः मूर्धा भव भवति नग्नमग्निस्तदः सौर्यो जायते प्रातरुद्यन्न माजाभूतयज्ञया नामेतामपोजत्तोर्निश्चरति प्रजानन् दृशेञ्जाजो महिना समिद्धोरो जतदिविजो निर्विभावा तस्मिन्नग्नौ सोक्तपाकेन देवाहविर्विश्व आजुहवस्तनोपाः सोक्तपाकम् प्रथममादिदग्निमादिद्धविरजनयन्त देवाः स एषा यज्ञो अभवत्तनोपास्तञ्जोर्वे ददम् पृथिवेदमापाः यम् देवासो जनयन्ताग्निम् यस्मिन्नाजुहवर्भवनानि विश्वा सो अर्चिषा पृथिवीन्द्यामुते मामृजोजमानो अदपन्महित्वा स्तोमे न हि दिवि देवासो अग्निमजे जनाञ्छक्तिभिरोदसि प्राम् तमो अगृण्वन्त्रेधा भवेकम् स ओषधेः पचति विश्वरोपाः यदेदे न मदधुरयज्ञजासो दिवि देवाः सौर्यमादितेजाम् यदा च रिष्टा मिथुना बभो तामादित्रापश्यन् भवनानि विश्वा विश्वस्मा अग्निम् भुवनाय देवा वै ईश्वानरङ्गेतुमह्नामकृण्वन् आजस्तदा नोषसो विभाते नमो ओर्णोति नमो अर्चिषाजन् वैश्वानरङ्गमजो यज्ञजा सोऽग्निम् देवा अजनयन्न जुर्यम् नक्षत्रम् रत्नममिनच्च रिष्मजक्षस्याध्यक्षम् तभिषम् बृहन्तम् वैश्वानरम् विश्वः दे दिवाम् सम्मन्त्रैरग्निम् कविमच्छावदामः व्योमहिम्ना परिबभोवोर्वे उदावस्तादुतदेवः परस्तात् द्वे श्रुते अशृणवम् विद्रोणामहम् देवानाबुदमर्त्यानाम् ताभ्यामिदम् विश्वमे दत्समे त्यजदन्तरा पितरम् मातरम् च द्वे समे चेऽपि भृतश्चरम् तम् शेर्षतो जातम् मनसा विमृष्टाम् स प्रत्यङ् विश्वा भुवनानि तस्थाव प्रयच्छन्तरनिर्भ्राजमानः यत्रावदे ते अवरः परश्च यज्ञन्यो कदरो नौ विवेद आशे कुरित्सधमादम् सखायो लक्ष्यम् दयज्ञङ्ग इदम् विवोचत कत्यग्नयः कतिसौर्या सः कत्युषा सः कत्युस्विदापाः नोपस्पिदम् वः पितरो वदापि पृच्छापि वः कवयो विद्मरेकम् यावन्मात्रमुषसो न प्रदेकम् सुपर्ण्यो वसते मातरिष्वः तावद्दधात्युपयज्ञभाजन् ब्राह्मणोः दुरवरो निषेदन्